अतः सप्तपन्थानं महामन्त्रम् ॐ विश्वदेवाः पयन्तु एकं तत् ब्रह्म सनातनम् आरूपं सर्वरूपं विश्वं चराचरं भूभुवस्वर्लोकं यास्थितं गतिमयं विकालातीतं यत्स्थानं वाचं ध्यानं मूर्तम् एकं सच्चिदनन्दम् अद्वितीयं तथैव विरचितं हृत्पुण्डरीकम् भूमाहि केवलं तत् प्रणमामि अहं त्वमेव चिदनन्दरूपं विश्वेश्वः विश्वरूपम् अरूपं सदा विश्वात्मं विश्वविन्दं करुणाद्रं त्रिभुवनं कारणं परिधानं परिणामं परित्राहि नित्यं सदा विराजितं अन्तर्गुहायां परमात्मं एकं तत् सच्चिदनन्दं प्रणमामि त्वं सर्वज्ञानं बीजं व्याप्तं विषयां परमात्मनं प्राणं हृदयं यत्करोमि मानसं प्रतिम जगद्व्यापिनि कार्यकारणं यत् शृणवामि यत् पश्यामि यद्वाक्यां वदिष्यामि एतत् सर्वं नित्यचराचरं यत् चिन्तयन् जगतो व्यापृतं कृपयं तदिदं सर्वम् एतत् तद् प्रणमामि मानसप्रणिकाय सदा आत्मानि समर्पयामि तदक्षरम् विश्वरूपं त्वं जगदुत्पालिनं विश्वमातृकं जगदुद्भावप्रेमवावृतम् एतदनन्तशक्तिं अनन्तं करुणायां सर्वाधारं विरजितं विश्वजननीं तं हि परमात्मनं ब्रह्ममयीं दिव्यजननीं देवतानं मुनीश्वरं मानवितरं प्रसीदतं विश्वेश्वरी जगतानं जीवकूटं निमेनयामि तं दिव्यजननीं त्वदमृतस्य सत्यपन्थानं धारयानं देवं सदानं ब्रह्मानन्दं ब्रह्मपदम् एतत् पावकं ब्रह्मरूपं सदान्तरं धारयामि अर्चितं तत् अरूपरूपं रीतं आवृतं सदा योगिषायां कर्म आवृतं परममोक्षप्रदानम् तत्सेवयं हृतन्तरं प्रेमं अभीप्सायां सदा आत्मानि समर्पणं विश्वेशां दीवनं यद्विश्वप्राणा असि यदौषधीषु वनस्पतिषु मानवेतरं तद्ब्रह्मस्पर्श आमहनं तस्यति ददति महाप्राणं परमभाष्यमग्निं दत्त्या तद्ब्रह्मप्रज्ञानम् इदम् आत्मन् परमात्मानं सहचित्तं सर्वेषां सत्यस्य पन्थानं रीतस्य पन्थानं धारयामि तत्पारमं ब्रह्म सनातनं प्रणमामि अहम् तत्पारमं ब्रह्म सनातनं प्रणमामि अहम् तत्पारमं ब्रह्म सनातनं